अस्तु तर्हि नमस्कारः अस्माकं न्यायवर्गे इदानीं तत्र अव्याप्यवृत्तित्वं व्याप्यवृत्तित्वम् इति विषये स्मः वयं तत्र रूपम् इति विषयः इदानीं रूपम् इति गुणः तस्य व्याप्यवृत्तित्वं वा अथवा अव्याप्यवृत्तित्वं वा इति इदानीं प्रश्नः अस्ति तर्हि वयं इदानीम् अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति वयं दृष्टवन्तः अव्याप्यवृत्तित्वम् इत्यस्य लक्षणवाक्यमासीत् स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति इत्युक्ते यत्र तस्य अभावः अस्ति तस्मिन्नेव स्थले तस्य वक्तित्वमपि अस्ति इति इत्युक्ते तत्र चिन्तयतु तत्र हस्तभित्तयोः संयोगः अथवा शब्दः आकाशे इति तत्र उदाहरणद्वयं वयं परिशीलितवन्तः अत्र हस्तभित्तयोः संयोगः इति चिन्तयामः चेत् तत्र यत्र भित्तः इति तत्र अधिकरणम् इति स्वीकुर्मः चेत् हस्तः संयोगः भित्तौ इति तत्र संयोगस्य अधिकरणं भित्ति इति स्वीकुर्मः चेत् तत्र भित्तौ संयोगस्य अभावः अपि अस्ति संयोगः अपि अस्ति तत्र स्व अभावस्य स्वम् इति संयोगः तस्य अभावः यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे संयोगः अपि अस्ति इति कृत्वा तथैव तत्र शब्दः अपि च आकाशम् इति शब्दः आकाशे अस्ति शब्दः इति गुणः शब्दः आकाशे अस्ति अपि च तत्र आकाशे अन्यत्र शब्दः नास्ति अपि इत्युक्ते स्व अभावस्य अधिकरणे इत्युक्ते शब्दः तस्य अभावस्य अधिकरणे इत्युक्ते आकाशे स्वस्य व्यक्तित्वं स्वस्य विद्यमानत्वम् इत्युक्ते शब्दस्य विद्यमानत्वम् इत्युक्ते शब्दस्य अस्तित्वम् इति यदा वयं तादृश उदाहरणं स्वीकृत्य गते सप्ताहे किञ्चित् पठितवन्तः तर्हि अद्य अग्रे पठेम अवच्छेदकत्वम् इति विषयः अस्मिन् कक्षायाम् अस्यां कक्षायां किञ्चित् तस्मिन् विषये पठेम अस्तु तर्हि पुष्पा भगिनी भवती एव आरम्भं करोति वा तत्र अवच्छेदकत्वं रूपं व्याप्यवृत्तिगुणः इति हरि ओम् पुष्पा भगिनी अस्ति वा
किं
पृष्ट न पठतु इति उक्तवती भगिनी अवच्छेदकत्वम् इति भागः इति शीर्षकः अस्ति खलु तस्मात्
करपत्रं
हा हा
रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः कपिः वृक्षस्य अग्रभागे वर्तते रूपं व्याप्यवृत्तिः गुणः अथवा व्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका
वदतु भगिनि किम् अस्ति अत्र
अवं व्याप्यवृत्तिः गुणः तु अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये अवच्छेदकत्वं विषयं चिन्तनार्थम् अत्र उपकारं भवति.
हा, अत्र व्याप्यवृत्तिगुणः अव्याप्यवृत्तिगुणः इति कस्य गुणस्य विषये अस्ति इदानीम्?
तस्य
अथवा कः व्याप्यवृत्तिः अथवा अव्याप्यवृत्तिः इति इदानीं चर्चा.
रूपं रूपं व्याप्य
उत्तमं
रूपम् अव्याप्यवृत्तिगुणः या अव्याप्यवृत्तिः गुणः अस्ति इत्यस्य अवच्छेदकत्वं विषयं चर्चा अत्र उपकारं करोति. चर्चा उपकारं करोति. अवच्छेदकत्वस्य अहं तु पठामि एकवारं. अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः अस्ति वा नास्ति, कपिः अग्रभागे वर्तते या मूलभागे वर्तते, कः कति वर्तते कति न किं भागे वर्तते इति चर्चां करिष्यामः न तत्र.
कुत्र वर्तते इति विषयः न, परन्तु कपिवृक्षयोः मध्ये संयोगः कपिः स च संयोगः कुत्र इति तत्र उदाहरणं प्रसिद्धम् अस्ति न्याये इत्येव.
एकवारं
न तत्र कपिवृक्षयोः मध्ये संयोगः यः अस्ति स च संयोगः कुत्र इति विषयः इति उदाहरणम् अथवा न्याये प्रसिद्धम् अस्ति इत्येव अस्ति तत्र. अग्रे अपि पठतु भगिनि.
विद्याधर्याम् एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायां देशवर्ति शाखायां तस्य अभावस्तु मूलदेशवर्ति शाखायाम् एवं च अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम्. मूलं च कपिसंयोगभावनिष्ठ अभाव कपिसंयोगाभावनिष्ठाधेयता निरूपित अधिकरणता अवच्छेदकम्. अत्र अहं तु एकवारं पठामि. विद्याधरी पुस्तके एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायाम् अत्र कपिः अस्ति अग्रदेशवर्ति शाखायाम्.
अग्रदेशवर्ति इत्युक्ते किम्?
अग्रदेशवर्ति अत्र उपरि
इत्युक्ते अग्रभागे यः या शाखा अस्ति तस्यां शाखायां कपिः अस्ति
उपरि न उपरि तस्य अभावः मूलभागे मूलदेशवर्ति शाखायां न अस्ति अभावः तस्य अभावः.
कस्य अभावः इत्युक्ते किम्?
कपि
कस्य अभावः?
कपि कपेः कपेः अभावः न सप्तमी विभक्ति न
सत्यं
कपेः अभावः मूलमेवदेशवर्तिशाखायाम् अस्ति एवं च अग्रं कपिनिष्ठ अधेयता निरूपिता एवं च अग्रदेशवर्तिशाखायां
न अग्रदेशवर्तिशाखायाम् इति न अग्रभागः अग्रमित्युक्ते अग्रभागः यस्य यस्मिन् तत्र कपिः अस्ति सः भागः
कपिनिष्ठ अधेयता निरूपिता या वृक्षानिष्ठ निष्ठा अधिकरणता तस्याः अवच्छेदकम्
इत्युक्ते किं कपिनिष्ठ अधेयता निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम् इत्युक्ते किम्
एवं तु मूलदेशस्य विवरणं करोति
न न न न पुनः तस्मिन् वाक्यम् आरम्भतः पठतु
एवं च अग्रं कपिनिष्ठ
एवं च अग्रम् इति अस्ति खलु तर्हि कथं वा मूलं विवरणं करोति अग्रम् अग्रम् एव वदति खलु अग्रं किम् इति एव वदति तस्मिन् वाक्ये
अग्रं तु उपरि भागस्य
सत्यम् अत्र सत्यं सत्यं परन्तु मम प्रश्नः भिन्नः खलु कपिनिष्ठ आदेयता निरूपिता या वृक्षनिष्ठ अधिकरणता इत्युक्ते किम्
वृक्ष नास्ति चेत् कपि कपि तु न वर्तते
न न तथा नास्ति वृक्षः नास्ति चेत् किमर्थं कपिः न वर्तते प्रथमतया तत्र वृक्षः नास्ति चेत् प्रायः कपिवृक्षयोः संयोगः न वर्तते परन्तु कपिः न वर्तते इति कदापि न वक्तुं शक्नुमः खलु तथा नास्ति सुनील् महोदय भवान् वक्तुं शक्नोति वा तत्र कपिनिष्ठ आदेयता निरूपिता या वृक्षनिष्ठ अधिकरणता इत्युक्ते किम् न जानामि भगिनि मया न श्रूयते अस्तु महोदय भवान् वदतु
अत्र वाक्यमस्ति एवं च अग्रं कपिनिष्ठ अधेयता निरूपिता या वृक्षनिष्ठा अधिकरण तस्याः अवच्छेदकम् इदानीम् अत्र अग्रदेशवर्तिशाखायाम् इति अस्ति अत्र कपिः अग्रदेशवर्तिशाखायाम् इति अस्ति या शाखायाः अवच्छेदकमस्ति कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता इति तस्याः शाखायाः अवच्छेदकमिति अहं चिन्तयामि
सम्यक् सम्यक् तदेव इत्युक्ते अग्रभागे कपिः अस्ति इति कारणात् तत्र कपिनिष्ठ आदेयता निरूपिता इत्युक्ते कपिनिष्ठ आदेयता तस्मिन् अस्ति तया निरूपित वृक्षनिष्ठ अधिकरणता इत्युक्ते कपिः वृक्षे एव अस्ति इति कारणात् तत्र वृक्षनिष्ठ अधिकरणता इति अग्रभागस्य विवरणम् अग्रिमवाक्यं पश्यतु तत्र मूलभागस्य विवरणं किम् अस्ति कपिसंयोग अभावनिष्ठ आदेयतानिरूपित अधिकरणता अवच्छेदकम् इत्युक्ते मूलभागम् अस्ति कपिसंयोग अभावनिष्ठ इत्युक्ते अग्रभागे कपिः अस्ति मूलभागे कपिः नास्ति इति तत्र अव्याप्यवृत्तित्वम् अपि भवति खलु. एतदेव वयं गतसप्ताहे अपि पठितवन्तः. अत्र अवच्छेदकम् इति इदानीं नूतन पदम् आयाति. तत्र अवच्छेदकम् इति पदम् उपयोगं कृत्वा वयं तत्र वक्तुं सम्यक्तया वक्तुं शक्नुमः यत्र संयोगः अस्ति यत्र संयोगः नास्ति इति. इदानीम् अग्रे पठेम. तत्र इतोपि किञ्चित् विवरणम् अस्ति अत्र एतस्मिन् विषये एव. तर्हि महोदय भवानेव अग्रे पठतु.
अनेन कपि संयोगः अपि भवति वृक्षे.
भगिनि एकवारं इदं तु वदतु.
अग्रे तदेव विषयः आगच्छति भगिनि, शृणोतु किञ्चित्. एतस्यैव विवरणमस्ति अग्रे.
अहं पठामि. अनेन कपिसंयोगः अपि भवति वृक्षे. कपिसंयोग अभावः अपि भवति वृक्षे. द्वामपि कपिसंयोगः कपिसंयोग अभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः. अत्र ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम्, अस्यां दशायां यत् अवच्छेदकत्वम् अपि च कपिसंयोगस्थले यत् अवच्छेदकत्वं, द्वयमपि भिन्नम्. विद्याधर्यां घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात् इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. इदानीं पूर्वस्मिन् वाक्ये वयं दृष्टवन्तः कपि संयोगस्य वा अथवा कपि संयोग अभावस्य विषये एकस्मिन् वृक्षे. अत्र अग्रे कपिः अस्ति चेत् अत्र कपि संयोगः अस्ति इति वयं जानीमः. मूले नास्ति चेत् अत्र कपि संयोग अभावः अपि अस्ति. अतः एकस्मिन् वृक्षे एव कपिसंयोगः भवति इति, कपिसंयोगः अभावः अपि भवति इति वयं जानीमः. अत्र तादृश वदनार्थं तत्र अवच्छेदस्य
विषयः तत्र कपिसंयोगः अभावः इति तत्र सम्यक् पदप्रयोगं नास्ति. तत्र कपि संयोगस्य अभावः इति यथा पृथक्तया वक्तव्यं चेत् अथवा समस्तपदं कपिसंयोग अभावः इति. कपिसंयोगः अभावः इति वदामः चेत् अभावः कपिसंयोगस्य विशेषणं भवति खलु, परन्तु तथा नास्ति.
अतः इदानीं कपिसंयोगः च कपिसंयोगाभावः एकस्मिन् पक्षे एव अस्ति इति वक्तुम् इच्छामः चेत् तत्र अवच्छेदकस्य उपयोगमपि भवितुम् अर्हति. अतः वयं पूर्वमेव दृष्टवन्तः घटाभावः अथवा घटस्य उदाहरणे घटाभावः भूतले इति. तत्र वयम् अवच्छेदकस्य विषयं चर्चितवन्तः अथवा घटत्वम् इति अवच्छेदकमस्ति. अत्रापि अवच्छेदकत्वमपि अस्ति. अतः इदानीं
एकक्षणं क्षम्यतां. तत्र घटत्वम् इति कस्य अवच्छेदकमस्ति?
भूतलस्य.
भूतलस्य अवच्छेदकं वा घटत्वम् इति? तत्र वाक्यं पुनः पठतु. तत्र अत्र देयं यत् तद् वाक्यं पुनः एकवारं पठतु.
विषय घटाभावः भूतले इति वा?
हा, अत्र ध्येयं यत् पूर्वं चर्चितः विषयः.
अत्र ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम्
इदानीं वदतु तत्र अवच्छेदकं कस्य
अत्र घटे विद्यमानप्रतियोगितायाः अवच्छेदकं
तर्हि प्रतियोगिता इत्युक्ते किं
प्रतियोगिता अस्ति अभावस्य विरोधी अस्ति
हा अभावस्य विरोधः अस्ति प्रतियोगिता इति तर्हि प्रतियोगिता कुत्र अस्ति
घटे अस्ति
घटे अस्ति घटत्वं कुत्र
घटे एव अस्ति
घटे एव अस्ति उत्तमं तर्हि घटत्वम् इति यत् घटे विद्यमान घटस्य भावः अस्ति तत् तद् अवच्छेदकम् अस्ति प्रतियोगितायाः इति यत् अवच्छेदकं वयं पूर्वं चर्चितवन्तः इति एकविद अवच्छेदकमस्ति यद्वयं पूर्वं तत् चर्चितवन्तः तादृश अवच्छेदकम् अपि च इदानीं कपिसंयोगस्थले यद् अवच्छेदकम् इति विषयः नूतनविषयः आयास्यति द्वयोः मध्ये भेदः वर्तते द्वयोः द्वावपि अवच्छेदकं समानम् इति न तस्मिन् तयोः मध्ये भेदः वर्तते इत्येव तत्र विषयः अस्ति तदेव विद्याधर्यामपि यद्वाक्यमस्ति तदपि तदेव वदति तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वम् इदम् अवच्छेदकत्वम् इत्युक्ते कपिसंयोगस्थले यद् अवच्छेदकत्वम् अस्ति तत् यद् अवच्छेदकत्वं मूल अग्रनिष्ठम् इत्युक्ते वृक्षस्य मूलभागे अथवा वृक्षस्य अग्रभागे इति यद् वयम् अवच्छेदकम् इति वदामः तत् अवच्छेदकत्वं तयोः मध्ये भेदः अस्ति इति अवगतं वा
अवगतम् इदानीम् अत्र अहं किञ्चित् भ्रमः अस्ति घटाभः भूतले इति वाक्ये किञ्चित् भ्रमः आसीत् अतः
हा 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 इत्युक्ते घटाभावः भूतले इति वदामः चेत् तत्र भूतले घटः नास्ति घटस्य आनयनेन तादृश अभावः नश्यति
अहं चिन्तितवान् तत्र एव अवच्छेदकस्य विषयं वदति इति अतः
चिन्ता नास्ति हा अस्तु अग्रे पठतु महोदय
प्रथमतया घटस्य उदाहरणं स्मरेम भूतले घटाभावः घटाभावं प्रति यः विरोधः सः घटे विद्यते अतः घटस्य आनयनेन घटाभावः नश्यति घटे यः घटाभावविरोधः स च प्रतियोगिता नामकः तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितं तच्च अवच्छेदकमपि घटे स्यात् सर्वदा च घटे स्यात् अन्यत्रापि न स्यात् घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकं यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता अथवा विरोधः वर्तते यस्य द्वारा घटाभावः नष्टः स्यात् प्रतियोगिता च भिद्यते अवच्छेदेन अतः तस्याः नाम अवच्छेद्या इदानीं घटस्य उदाहरणं पुनः स्वीकुर्मः तत्र भूतले घटाभावः इति विषये घटाभावं प्रति तत्र सः विरोधः घटे एव विद्यते अथवा घटाभावः अस्ति घटस्य आनेन घटाभावः नश्यति इति वयं जानीमः तत्र घटे घटाभावविरोधः अस्ति चेत् प्रतियोगिता इति वयम् अपि वयं वदामः तादृशी घटाभावविरोधिनी अथवा प्रतियोगिता कुत्र भवति इति तादृशप्रतिपादनार्थम् अथवा तद् विवरणं कर्तुं वयम् अवच्छेदकम् अथवा भेदकम् इति शब्दम् शब्दस्य उपयोगं कुर्मः. तत्र तादृश अवच्छेदकं घटे अस्ति, सर्वदा घटे एव अस्ति, अन्यत्र कुत्रापि नास्ति इति. अतः घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकं. तादृशी अभावस्य विरोधः भवति चेत् घटाभावः नष्टः भवति. अतः प्रतियोगिता च भिद्यते अवच्छेदेन, अतः तस्याः नाम अवच्छेद्या इति. अत्र घटस्य अभावस्य विरोधी यत्र वर्तते तद् विवरणं कर्तुं तत्र अवच्छेद्य नाम शब्दं वयम् उपयोगं कुर्मः.
तत्र अवच्छेद्या इत्युक्ते प्रतियोगिता एव इत्युक्ते अवच्छेदकम् अस्ति घटत्वम् इति. तादृश अवच्छेदेन तत्र भिद्यते इति कृत्वा प्रतियोगिता अस्ति अवच्छेद्या. अवच्छेदकम् इत्युक्ते तत्र किं, तत्र येन भिद्यते इति एव खलु. तत्र अवच्छेदकम् इत्युक्ते भेदकम् इत्युक्ते अवच्छेद्यं करोति इत्युक्ते भिद्यते, येन भिद्यते तदेव अवच्छेदकम् इदानीं. तर्हि घटत्वम् इति अवच्छेदकं भवति, घटत्वेन अवच्छेद्यते तत्र प्रतियोगिता इत्युक्ते अवच्छेद्या भवति प्रतियोगिता इति. तर्हि अत्र चिन्तयतु, इदानीं घटः नास्ति अत्र, घटाभावः अस्ति चेत् अत्र घटम् आनयामि चेत् तत्र घटाभावः नश्यति. तर्हि तत्र यदा घटस्य आनयनं भवति तदा घटे घटत्वम् अस्ति, प्रतियोगिता अपि अस्ति खलु. तर्हि घटे तत्र घटत्वं नास्ति चेत् तर्हि तत्र घटाभावस्य नष्टं न भवति. तर्हि यत्र यत्र इदानीं घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अपि अस्ति, यतोहि घटे एव घटत्वं, घटे एव घटाभावस्य प्रतियोगिता अपि, इत्युक्ते घटाभावस्य विरोधः अपि घटे एव अस्ति. घटस्य आनयनेन नश्यति, घटे एव घटत्वम् अपि अस्ति इति कारणात् तत्र घटत्वम् इति तस्य प्रतियोगितायाः अवच्छेदकं भवति. यतोहि तत्र अत्र कीदृशी प्रतियोगिता इत्युक्ते घटत्वावच्छिन्नप्रतियोगिता. जले कीदृशी प्रतियोगिता इति वदामः चेत् जलत्वावच्छिन्नप्रतियोगिता इति, तस्य अवच्छेदकं करोति तत्र इदानीं घटत्वम् इति. प्रतियोगिता अवच्छेद्या भवति. तर्हि अस्तु, बालसुब्रह्मण्यं महोदय, भवान् अग्रे पठति वा?
घटस्य दृष्टान्ते अवच्छेद्य अवच्छेदकं च द्वयोः समानाधिकरणं वर्तते. अवच्छेद्य प्रतियोगिता, अतः प्रतियोगिता घटतयोः समानाधिकरणम्. एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणकृतम् अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. यतोहि प्रतियोगिता घटतयोः अनतिरिक्तवृत्तित्वम् अस्ति. अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम्. Uh, अवच्छेदकः घटे अस्ति, अवच्छेद्या प्रतियोगिता, प्रतियोगिता अपि घटे एव अस्ति.
अवच्छेदकं किम्?
अवच्छेदकं घटं, घटत्वं.
घटत्वम्, उत्तमम्.
घट, घटस्य दृष्टान्ते अवच्छेद्य प्रतियोगिता, अवच्छेदकता घटत्वं, तस्मात् समानाधिकरणम्.
अवच्छेदकं घटत्वं.
अवच्छेदकं घटत्वं,
घटत्वम् अवच्छेद्य प्रतियोगिता,
प्रतियोगिता, तस्मात् समानाधिकरणमस्ति.
न न, कस्मात् समानाधिकरणमस्ति, पुनः वदतु तत्.
अधिकरणं घटं, उभयोः अपि घटमेव अधिकरणम्.
उत्तमम्. इत्युक्ते प्रतियोगिता अपि घटे, घटत्वम् अपि घटे इति समानाधिकरणम्.
एतत् कारणात् एवं नामकरणं कृतं वा, अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकता?
एतदर्थं या अवच्छेदकता इत्युक्ते तत्र घटत्वम् इति अवच्छेदकं चेत् घटत्वे अवच्छेदकता अस्ति खलु, यया अवच्छेदकतया तत्र इदानीं भिद्यते प्रतियोगिता, तादृश अवच्छेदकता अस्ति घटत्वे. तत्र चित्रं स्मर्यतां, तत्र अवच्छिन्ना इति तत्र लघुमार्गः अस्ति, दीर्घमार्गः अपि आसीत्, अवच्छेदकता अस्ति. हा, अपि च अवच्छेदकता, अवच्छेद्या इति सर्वमपि वयं दृष्टवन्तः, तत्र दीर्घमार्गः अपि आसीत्. तर्हि अवच्छेदकता अस्ति घटत्वे, तत्र अवच्छेदकता तत्र कीदृशी अवच्छेदकता इति चिन्तयामः चेत् तत्र अन्यून अनतिरिक्त वृत्तिरूप अवच्छेदकता, वृत्तित्वरूप अवच्छेदकता, क्षम्यतां, वृत्तित्वरूप अवच्छेदकता. किमर्थं तत्र तादृशनाम इति चिन्तयामः चेत् अत्र तत्र प्रतियोगिता अपि च घटत्वं द्वयमपि, द्वयोः अपि समानाधिकरणम् अस्ति इति वयं दृष्टवन्तः. समानाधिकरणम् इत्युक्ते किं? घटत्वमपि घटे, प्रतियोगिता अपि घटे. तर्हि यदा घटत्वं यत्र अस्ति तत्र प्रतियोगिता अपि अस्ति खलु, तर्हि तत्र इदानीं घटस्य आनयनेन तत्र घटाभावः नश्यति इति कृत्वा तत्र तस्मिन् प्रतियोगिता अस्ति इति वदामः चेत् तत्र घटत्वं पृथक् इति न, पृथक्त्वं घटत्वमपि तस्मिन्नेव घटे एव अस्ति. तर्हि तत्र यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता, अथवा यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति इति कृत्वा प्रतियोगिता घटत्वयोः तादृश अनतिरिक्तवृत्तित्वम् अस्ति इति कृत्वा घटत्वे विद्यमान अवच्छेदकतायाः नामकरणं कृतम् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति.
अवच्छेदकता तस्य नाममेव, नामकरणमेव अन्यून अनतिरिक्तवृत्तित्व
सत्यं. तत् कीदृशी अवच्छेदकता इत्युक्ते अन्यून अनतिरिक्तवृत्तित्वरूप, वृत्तित्वरूप अवच्छेदकता इति. अस्तु,
यतोहि घटत्वयोः,
न न अग्रिमपरिच्छेदः महोदय, अधुना कपिवृक्षयोः,
अधुना कपिवृक्षयोः आकृतिः अवलोकनीया. कपिसंयोगः वृक्षस्य अग्रभागे, कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे. यथा प्रतियोगिता अवच्छेद्य घटस्य दृष्टान्ते, अत्र अपि संयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्य अवच्छेदकं च वृक्षस्य अग्रभागः. सो कपि संयोगनिष्ठ आधेयता निरूपित अधिकरणता इति वृक्षे अवच्छेद्य अवच्छेदकं वृक्षस्य
आरम्भतः पठतु किञ्चित्.
कपिवृक्षयोः आकृतिः अवलोकनीया. ओके, सो इदानीं कपिवृक्षविषयं पश्यामः. कपि संयोगः वृक्षस्य अग्रभागे अस्ति, तस्मात् कपिसंयोगनिष्ठाधेयता निरूपित अधिकरणता वृक्षे.
इत्युक्ते कपिसंयोगः अग्रभागे इत्युक्ते वृक्षस्य अग्रभागे कपिसंयोगः अस्ति
अस्ति
इत्युक्ते तत्र अधिकरणं किम्? अत्र
वृक्षः
वृक्षः तर्हि तत्र अधिकरणता तर्हि कुत्र अस्ति?
अधिकरणता वृक्षे एव अस्ति.
वृक्षे एव अस्ति. कीदृशी अधिकरणता?
कीदृश अधिकरणता इति कपि संयोगनिष्ठ आधेयतानुरूपित अधिकरणता.
इत्युक्ते किं कपिः अस्मिन् वृक्षे अस्ति इति कृत्वा कपिसंयोगः अपि अस्ति खलु वृक्षे? तर्हि कपिसंयोगनिष्ठ क्षम्यतां कपिसंयोग कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता अस्ति वृक्षे.
वृक्षे
परन्तु इदानीं पश्यतु तत्र इदानीं यथा वयं घटत्वविषये अवच्छेद्या इति किम् आसीत् तत्र प्रतियोगिता आसीत् अस्माकम् अवच्छेद्या. इदानीं तत्र अधिकरणता भवति कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता इति या अधिकरणता अस्ति तद् भवति अवच्छेद्या. तस्य अवच्छेदकं भवति अग्रभागं, यतोहि तत्र अग्रभागे एव तत्र कपिः अस्ति इदानीम्. अवगतं वा? अस्तु, अग्रे पठतु महोदय. इदानीं तत्र
तर्हि घटः घटाभावः कपिसंयोगः कपिसंयोग अभावः द्वयोः दृष्टान्तयोः भेदः कः? घटाभावयोः सहानवस्थानरूपः विरोधः वर्तते. भूतले यथा घटाभावः अस्ति तदा घटाः नितरां नास्ति. यदा घटः अस्ति तदा घटाभावः नितरां नास्ति. किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्वभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति कपिसंयोग अभावः अपि अस्ति. अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति. सो अत्र भेदः कः? सो घटदृष्टान्तं कपिसंयोगदृष्टान्तं द्वयोः मध्ये भेदः कः इति प्रश्नः. घट अभावः सः नवस्थानरूपी इत्युक्ते यदा घटः अस्ति घट अभावः नास्ति, यदा घट अभावः अस्ति घटः नास्ति इत्युक्ते सः नाभस्थानरूपी.
इत्युक्ते एकमेव एकस्मिन् समये भवितुम् अर्हति. यदा घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति इति तत्र सहानवस्थारूपः सहानवस्था इति नाम्ना विरोधः वयम् आरम्भे दृष्टवन्तः. तर्हि घटघटाभावः इति तत्र तयोः मध्ये तादृशविरोधः अस्ति. परन्तु कपिसंयोगः कपिसंयोगाभावः इति विषये तादृशविरोधः अस्ति वा इति इदानीं प्रश्नः.
कपिसंयोगः सम्पूर्णवृक्षे अव्याप्तिवृत्तिगुणः इति गुणः अस्ति इति कारणात् स्व अभावस्य अधिकरणे समानसमये स्वः अपि उभयोः युगपत् विद्यमानत्वम् अस्ति. नाम वृक्षे समानकाले कपि संयोगः अपि अस्ति, कपि संयोग अभावः अपि अस्ति. कपि संयोगः अत्र गुणः अव्याप्यवृत्ति इति कारणेन एवं भवति.
अव्याप्यवृत्तिः इत्युक्ते किम्?
अव्याप्यवृत्तिः इति यत्र न व्याप्यम् अस्ति, अत्र लक्षणवाक्यम् इदं पठितम्, एकस्मिन् पटे बहूनि रूपाणि सन्ति इति.
अव्याप्यवृत्तिः इति गुणः, अव्याप्यवृत्तिः अथवा अव्याप्यवृत्तित्वं नाम किम्?
अव्याप्यवृत्तित्वं समानकाले एकभागे अस्तित्वं विद्यमानत्वम् अस्ति, अपरस्मिन् स्थले अपरस्मिन् भागे अभावत्वम् अस्ति.
इत्युक्ते तत्र तस्मिन्नेव अधिकरणे एकस्मिन्नेव अधिकरणे स्व अभावः अपि अस्ति, स्व विद्यमानत्वमपि अस्ति, स्वस्य विद्यमानत्वमपि अस्ति. इत्युक्ते तत्र यदा दत्तं समानकाले कपिसंयोगः अपि अस्ति वृक्षे, कपिसंयोग अभावः अपि अस्ति वृक्षे इति.
तस्मात् अवच्छेदकविषयः एतयोः मध्ये किञ्चित् भिन्नं भवति
इति इदानीम् अवगतं वा? तत्र घटघटाभावयोः अपि च कपिसंयोगकपिसंयोगाभावयोः मध्ये तत्र भेदः वर्तते. यतोहि घटघटाभावः मध्ये तत्र सहानवस्था इति विरोधः अस्ति. घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति इति कृत्वा तत्र इति अस्ति घटघटाभावयोः स्थले. परन्तु कपिसंयोगविषये तथा नास्ति. एकस्मिन्नेव समये तस्य कपिसंयोगः अपि अस्ति, कपिसंयोगस्य अभावः अपि अस्ति तत्र अधिकरणे. अग्रे अपि पठतु महोदय.
कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्वनिर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. तदर्थं विद्याधरी लिखितमस्ति अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम्. अत्र अग्रभागस्य अवच्छेदकत्वं किम् अवच्छेदकत्वं? वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वम्. तत् अवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते या अधिकरणतानिरूपित आधेयता कपिसंयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं. नाम कपि संयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. वृक्षनिष्ठ अधिकरणता अवच्छेदकं कपिसंयोगः अव्याप्यवृत्तित्वम् अस्ति इति कारणात् अग्रभागस्य अवच्छेदकं स्वीक्रियते. अव्याप्यवृत्तित्वनिर्वाहकम् अपि च अव्याप्यवृत्तित्वम् अस्ति इति सूचनार्थं ज्ञापकार्थम् एवं नामकरणम् उपयुज्यते. अव्याप्यवृत्तित्वनिर्वाहकम् इति नामकरणं.
महोदय एकक्षणं, तत्र किम् अस्ति इति अवगच्छति वा? मम विश्वासः नास्ति यथा भवान् वदति तत्र. मम विश्वासः नास्ति तदर्थमेव पृच्छामि.
पुनः एकवारं पठामि. कपिसंयोगः इति गुणस्य अव्याप्यवृत्तिनिर्वाहार्थं
वृक्षत्वनिर्वाहार्थम् अव्याप्यवृत्तित्वनिर्वाहार्थम्
अव्याप्यवृत्तित्वनिर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकं स्वीक्रियते.
किं न न एकक्षणं कण्ठशः पश्येम तत्र वाक्यं वाक्यं पठित्वा वदतु किम् आगच्छति इति.
वृक्षस्य अग्रभागस्य अवच्छेदकं क्रियते.
अवच्छेदकत्वं
स्वीक्रियते. अव्याप्यवृत्तित्वनिर्वहार्थम् इति
महोदय अहं पुनः वारं वारम् उक्तवती तत्र यत् पदं तत्र अस्ति तदेव पदम् उपयुज्य भवान् वदति चेत् तत्र प्रायः भवान् अवगच्छति, परन्तु मम विश्वासः नास्ति. यतोहि तत्र तद् यत् अस्ति अत्र तदेव भवान् वदति वा अथवा अवगम्य वदति वा इति अहं न अवगच्छामि, क्षम्यतां. तदर्थमेव अहं पुनः पुनः वदामि स्वस्य शब्दैः वदतु इति.
परन्तु अव्याप्यवृत्तित्वनिर्वाहकम्
इति पारिभाषिकशब्दः तु सत्यं तदेव, परन्तु तत्र वाक्यं तदेव वाक्यं पुनः भवान् पठति चेत् तत्र किञ्चित् भिन्नरीत्या पठति चेत् तत्र सम्यक् ऐ मीन् इत्युक्ते भवान् प्रायः अवगच्छति एव, परन्तु भवान् अत्र साक्षात् मम पुरतः नास्ति खलु, तर्हि अहं न अवगच्छामि यथा भवान् अवगच्छति वा न वा इति. तदर्थमेव
अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. कारणं संयोग कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्वं
दर्शनार्थम् इत्युक्ते वृक्षे अग्रभागे तत्र कपिसंयोगः अस्ति इति तत्र किमर्थं तादृश उदाहरणं स्वीकृतं चेत् तत्र अव्याप्यवृत्तित्वम् इति तस्य दर्शनार्थं यथा भवान् उक्तवान्. इत्युक्ते इदानीम् अत्र अग्रभागस्य अवच्छेदकत्वम् इति वदामः चेत् तत्र अग्रभागस्य अवच्छेदकत्वं कथं भवति? तत्र वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं तद्वयं पूर्वं दृष्टवन्तः खलु, कपिसंयोगनिष्ठ आदेयता निरूपित वृक्षनिष्ठ अधिकरणता इति. तस्य अवच्छेदकं भवति अग्रभागः इति. तर्हि तादृश अवच्छेदकत्वम् अस्ति अग्रभागे. तर्हि यथा तादृश उदाहरणं स्वीकृतम् इदानीं तेन उदाहरणेन सूचितमस्ति तादृश अव्याप्यवृत्तित्वम् इति विषयः अस्ति इति. इदानीं वस्तुतः अस्माकं विषयः तु कपि संयोगः इति नास्ति खलु, अथवा संयोगः इति अपि नास्ति, रूपम् इति विषये एव वयं स्मः. अत्र एतद् उदाहरणं किमर्थम् आगतम् इत्युक्ते तत्र अव्याप्यवृत्तित्वम् इति इति विषय इति विषयः अस्ति इति सूचनार्थमेव. तत् स्वीकृत्य तदाधारेण वयं तत्र अवच्छेदकत्वं तत्र अवच्छेदकतायाः भेदः तत्र प्रभेदः कः इति अवगम्य तत्र पूर्वम् अन्यूनातिरिक्त अवच्छेदकता इति दृष्टवन्तः. अग्रे इतोपि अन्यविध अवच्छेदकता अस्ति इति पठित्वा वयम् अवगन्तुं शक्नुमः अत्र अव्याप्यवृत्तित्वम् इत्युक्ते किं, तत् तस्य विवरणं कथं भवति इति. अवगच्छति वा अत्र किमर्थं कपि संयोगः एतत् सर्वम् आगतम् इति तत्र अस्ति? उत्तमं, तर्हि पुष्पा भगिनी भवती अग्रे पठति वा?
कपि संयोगः इति गुणस्य
तद् अभवत् भगिनि. अधुना
अधुना अन्यून अनति रिक्त वृत्तित्वं रूप अवच्छेदकता कुत्र वर्तते? घटः भूतले घटाभावस्य प्रतियोगिता घटे सा च अवच्छेद्या तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते. तत्त्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते. तत् च अवच्छेदकत्वम् अन्यून अनति रिक्तवृत्तित्वरूपम् च अवच्छेदकत्वं किमर्थम् इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता. अनेन घटत्वं प्रतियोगिता च तयोः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति. या च अवच्छेदकता वर्तते घटत्वे सा अन्यून अनतिरिक्तवृत्तित्वरूपा. अत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता कुत्र वर्तते इति पृथक्त्वं क्रियते अत्र. घटः भूतले अस्ति न घटाभावस्य प्रतियोगिता घटे अस्ति. घटाभावस्य प्रतियोगिता घटे अस्ति सा च अवच्छेद्या तु अस्ति.
अवच्छेद्या
घटे न घटत्वे
न तत्र तस्मिन् वाक्ये घटाभावस्य प्रतियोगिता घटे सा च अवच्छेद्या इति अस्ति खलु. सा च अवच्छेद्या इति सा का अवच्छेद्या का
प्रतियोगिता
अवच्छेदा अवच्छेद्या कुत्र इति मम प्रश्नः नास्ति अवच्छेद्या का
का घटः
अवच्छेद्या घटः न न भगिनि मम प्रश्नः अवच्छेद्या का तस्मिन् वाक्ये घटाभावस्य प्रतियोगिता घटे सा च अवच्छेद्या तत्र अवच्छेद्या का
घटाभावः न घटाभावः प्रतियोगिता घटे सा च
कोऽपि वक्तुं शक्नोति वा महोदय भवान् किञ्चित् वदति वा हरि ओं बालसुब्रह्मण्यं महोदय भवान् अस्ति वा भगिनि एकक्षणं हा बालसुब्रह्मण्यं महोदय भवान् वदति वा तत्र अवच्छेद्या का
अवच्छेद्य प्रतियोगिता
हा उत्तमं प्रतियोगिता अस्ति अवच्छेद्या तर्हि तस्य प्रतियोगितायाः इत्युक्ते या प्रतियोगिता अवच्छेद्या अस्ति तस्याः अवच्छेदकमस्ति घटत्वं घटत्वम् इति घटे विद्यमानं घटत्वं यदस्ति तदस्ति तादृशी प्रतियोगितायाः तादृश्याः प्रतियोगितायाः अवच्छेदकम् अवगच्छति वा भगिनि
प्रतियोगिता अवच्छेद्या तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वं
तर्हि घटत्वम् अवच्छेदकं चेत् घटत्वे अवच्छेदकत्वम् इति तद्वाक्यमस्ति खलु किमर्थं घटत्वम् अवच्छेदकं चेत् किमर्थं घटत्वे अवच्छेदकत्वम्
एकवारं वदतु किं
तत्र घटम् अवच्छेदकं चेत् कथं तत्र घटत्वे अवच्छेदकत्वम् इति यदस्ति तत् कथं कथं तथा भवति वाक्यम् अवगच्छति वा घटत्वम् अवच्छेदकं चेत् घटत्वे अवच्छेदकत्वम् इति वाक्यम् अवगच्छति वा
अवच्छेदकत्वं हा अस्ति अवच्छेदकं घटे अवच्छेदकम् अस्ति
न भगिनि वाक्यं किं घटत्वम् अवच्छेदकं चेत् घटत्वे अवच्छेदकत्वं तत्र घटे इति विषयः नास्ति घटत्वम् अवच्छेदकं तत्र घटे यद्धर्मः अस्ति तदस्ति घटत्वं तत्र त्वल् प्रत्ययः अस्ति खलु वयं पूर्वमपि दृष्टवन्तः तर्हि इदानीम् अवच्छेदकम् इति घटत्वं चेत् अवच्छेदकत्वम् इति अवच्छेदकस्य भावः यदस्ति तद् घटत्वे भवति तत्र कीदृश अवच्छेदकत्वम् इत्युक्ते तत्र अवच्छेदकत्वम् अपि च अवच्छेदकता इति समानपदं खलु तत्र द्विविधप्रत्ययः सन्ति वयं पूर्वं दृष्टवन्तः स्मरति वा तत्र प्रत्ययस्य नाम कोऽपि स्मरति वा वयं पूर्वं दृष्टवन्तः अवच्छेदकत्वम् अवच्छेदकता इति तत्र त्व तल् इति द्विविधप्रत्ययः वयं पूर्वं दृष्टवन्तः खलु त्व प्रत्ययः अस्ति चेत् अवच्छेदकत्वम् इति भवति तल् इति प्रत्ययः अस्ति चेत् तत्र अवच्छेदकता इति भवति तर्हि द्वयोः अर्थः समानः तत्र अवच्छेदकत्वम् अवच्छेदकता इति समानार्थः पदे तर्हि तत्र कीदृशी पूर्वम् अवचे अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति दृष्टवन्तः, इदानीम् अन्यून अनतिरिक्तवृत्तित्वरूपम् अवच्छेदकत्वम् इति, तत्र द्वयमपि समानमेव. इत्युक्ते किं तत्र तादृश किमर्थम् अन्यून अनतिरिक्तवृत्तित्वरूपम् इत्युक्ते, यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति, यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति इति, तयोः मध्ये तादृश भावः अस्ति अन्यून अनतिरिक्तवृत्तित्वम् इति. अवगतम्? सुनील सुनील महोदय, भवान् अग्रे पठति वा किञ्चित्?
भगिनि, अतः भगिनि अत्र अन्योन्य अतिरिक्तवृत्तित्वम् इति रूपम् इत्युक्ते सहना अवस्था एव इति वक्तुं शक्नुमः वा घटस्य विषये?
न, तत्र सहानावस्थाविरोधः इति घटः घटाभावः मध्ये यः विरोधः अस्ति तस्य नाम अस्ति सहानावस्थारूपम् इति. परन्तु अन्यून अनतिरिक्तवृत्तित्वम् इति तत्र प्रतियोगिता घटत्वयोः मध्ये यः अवच्छेदक प्रतियोगितायां क्षम्यतां घटत्वे या अवच्छेदकता अस्ति तस्य विवरणमस्ति अन्यून अनतिरिक्तवृत्तित्वम् इति, वृत्तित्वरूप अवच्छेदकता इति.
तत्र कुत्र धर्मः अस्ति इति?
सत्यं सत्यं,
किं वर्तते इति अहम् अग्रे पठामि. किन्तु यः कपिसंयोगः भवति वृक्षे तत्र वृक्षे सर्वत्र नास्ति, तत्र अवच्छेद्या अस्ति वृक्षनिष्ठाधिकरणता. किं निरूपणाधिकरणता? कपिसंयोगनिष्ठा आधेयता निरूपिता अधिकरणता, केवलाधिकरणता नास्ति. अत्र प्रश्नः उदेति तस्याः अधिकरणतायाः अन्यूना अनतिरिक्तवृत्तित्व रूपावच्छेदकत्वं कस्याचित् धर्मस्य इति वक्तुं शक्यते वा? यथा वृक्षत्वम् अन्यूना अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वं वृक्षस्य भवितुम् अर्हति न वा इति द्रष्टव्यम्. वृक्षत्वं वृक्षे सर्वत्र अस्ति वा? अपरेषु वृक्षेष्व अपि वर्तते वा? तस्य वृक्षत्वं कपिसंयोगनिष्ठा आधेयता निरूपिता अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा? यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः भवति वा? वृक्षत्वं वृक्षस्य मूले अपि अस्ति, अग्रभागे अस्ति, अपरेषु वृक्षेष्व अपि अस्ति, तत्र तत्र कपिसंयोगनिष्ठा आधेयता निरूपिता अधिकरणता अस्ति किम्? नास्ति. अतः वृक्षत्वस्य अनतिरिक्तवृक्षत्वरूपावच्छेदकत्वं न सम्भवति. इदानीम् अन्यप्रश्नः भवति. अत्र यदा वयं कपिसंयोगः वृक्षे इति स्वीकुर्मः चेत् वयं जानीमः वृक्षस्य सर्वभागेषु कपिसंयोगः नास्ति इति, केवलम् एकस्मिन् समये एकत्र एव इति. अतः अत्र अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणा इति, अधिकरणता इति. अत्र कपिः वृक्षे अस्ति इति वाक्ये. अत्र निरूपित अधिकरणता किम् इति प्रश्नः अस्ति. अस्ति कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता इति.
इत्युक्ते तत्र अधिकरणता कया निरूपिता भवति इति.
इदानीं वदति तत् केवल अधिकरणता नास्ति इति. अतः इदानीं प्रश्नः भवति तस्याः अधिकरणतायाः अवच्छेदकत्वं कस्यचित् धर्मस्य विषये धर्मस्य धर्मं स्वीकृत्य वक्तुं शक्यते वा इति, इत्युक्ते कीदृशम् अवच्छेदकत्वम् अस्ति इति एव प्रश्नः. यदा वयं वृक्षत्वं स्वीकुर्मः चेत् अन्यप्रश्नः अपि भवति, इत्युक्ते वृक्षत्वं सर्वत्र अस्ति वा इति एकः प्रश्नः अस्ति. वृक्षस्य सर्वभागेषु अस्ति वा, अनन्तरं अपरेषु वृक्षेषु अपि वर्तते वा, तादृशप्रश्नाः अपि उदयति. अतः अन्यप्रश्नः अस्ति अधिकरणतायाः अवच्छेदकम् अपि भवितुम् अर्हति वा, अथवा यत्र यत्र वृक्षत्वम् अस्ति तत्रापि कति संयोगः भविष्यति वा.
इत्युक्ते एकक्षणं महोदय, एकक्षणमत्र. इत्युक्ते तत्र यथा वयं घटविषये दृष्टवन्तः तत्र प्रतियोगिता इति अवच्छेद्य आसीत्, तत्र घटत्वम् इति तत्र घटे विद्यमानधर्मं स्वीकृत्य वयम् उक्तवन्तः तत्र घटत्वम् इति अवच्छेदकम् इति. तथैव इदानीं वृक्षे अस्ति अधिकरणता खलु, तर्हि अधिकरणता इति अवच्छेद्या भवति चेत्, यथा प्रतियोगिता इति घटे आसीत् प्रतियोगिता अवच्छेद्या भवति चेत् घटे विद्यमानं धर्मं स्वीकृत्य घटत्वम् इति धर्मं स्वीकृत्य वयम् उक्तवन्तः. तथैव इदानीम् अधिकरणता इति वृक्षे अस्ति इति कृत्वा वृक्षत्वम् इति धर्मं स्वीकृत्य वयं वृक्षत्वमेव अवच्छेदकत्वं तत्र अन्यून अनतिरिक्त अवच्छेदक अन्यून अनतिरिक्तवृत्ति वृत्तित्वरूप अवच्छेदकत्वम् इति वक्तुं शक्नुमः वा इति इदानीं प्रश्नः. तथा वदामः चेत् तत्र कीदृशी समस्या भवति इति चिन्तनीयमस्ति खलु. तर्हि तत्र तथा किं भवति, तत्र घटत्वस्थले वयं किम् उक्तवन्तः, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, अथवा यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति वयम् उक्तवन्तः. तथा इदानीं वक्तुं शक्नुमः वा, यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः, अथवा यत्र यत्र कपिसंयोगः तत्र तत्र वृक्षत्वम् इति वक्तुं शक्नुमः वा इति प्रश्नः भवति खलु. तत्र कपिसंयोग निष्ठाधिक आदेयता निरूपिताधिकरणता इति अवच्छेद्या भवति चेत्, तस्य अवच्छेदकमिति वृक्षत्वम् इति स्वीकुर्मः चेत् तादृशसमस्या भवति. अवगच्छति वा?
अवगच्छामि.
तर्हि तदर्थं तत्र तदर्थमेव तत्र अन्तिमवाक्यमस्ति, पठतु.
अतः नास्ति इति वयं जानीमः. अतः वृक्षत्वस्य अन्यूना अनतिरिक्त वृत्तित्वरूपावच्छेदकत्वं न सम्भवति. इत्युक्ते अत्र वृक्षत्वं स्वीकृत्य तद् वयं वक्तुं न शक्नुमः इति वा?
तत्र कपिसंयोगः अग्रभागे अस्ति इति वयं जानीमः वृक्षे. तर्हि तथाविध अन्यून अनतिरिक्तवृत्तित्वम् इति स्वीकुर्मः चेत् यत्र यत्र वृक्षत्वम् अस्ति तत्र, अथवा यत्र यत्र कपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणता अस्ति तत्र तत्र अग्रभागः अस्ति इति वक्तुं शक्नुमः वा? तथा न भवति खलु. तर्हि तत्र वृक्षत्वम् इति स्वीकुर्मः चेत् तादृशसमस्या आगच्छति. यत्र यत्र वृक्षत्वं, क्षम्यताम्, अग्रभागः इति न वृक्षत्वम्. इत्युक्ते यत्र यत्र वृक्षत्वम् अस्ति तत्र तत्र कपिसंयोगः इति वार्ता नास्ति खलु. तत्र कपिः तु एकस्मिन् वृक्षे अस्ति, परन्तु अपरः वृक्षः भवितुम् अर्हति यत्र कपि संयोगः नास्ति. एतस्मिन् वृक्षे अपि सर्वत्र कपि संयोगः अस्ति इति अपि नास्ति.
अपरेषु वृक्षेषु तु अर्हति
न, अस्ति एव वृक्षत्वं तु सर्वेषु वृक्षेषु अस्ति एव, परन्तु कपि संयोगः नास्ति. तर्हि वृक्षत्वम् इति वयम् अवच्छेदकम् इति स्वीकुर्मः चेत् कपि संयोगस्य, तर्हि यत्र यत्र वृक्षत्वम् अस्ति तत्र तत्र कपि संयोगः इति वक्तुं न शक्नुमः खलु. अवगच्छति वा भगिनि? अस्तु महोदय, अग्रे पठतु भवान् एव.
अधुना वृक्षस्य अग्रभागं पश्येम. तस्मिन् अग्रभागे अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वम् अर्हति किम्? यत्र यत्र वृक्षे कपिसंयोगनिष्ठा आधेयता निरूपिता अधिकरणता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा? अस्य उत्तरदानार्थं यत्र यत्र तत्र तत्र इति सम्यक्यता बोध्यम्. इदानीं वृक्षस्य अधिकरणतायाः विषये वयं दृष्टवन्तः. इद अनन्तरं केवलं वृक्षस्य अग्रभागं स्वीकुर्मः चेत् तत्रापि प्रश्नः अस्ति, इत्युक्ते तत्र अन्यूनानतिरिक्तवृत्तरूपावच्छेदकं सर्वदा अग्रभागे अस्ति वा इति कपिसंयोगविषये. अतः यत्र यत्र वृक्षे कपिसंयोगनिष्ठा अधेयता निरूपिता अधिकरणता अस्ति तत्र तत्र अग्रभागः वर्तते इति अपि वक्तुं शक्यते वा? अन्यप्रश्नः अपि अस्ति. अतः यत्र यत्र तत्र तत्र इति सम्यक् रीत्या उपयोगं करणीयम् इति अस्ति. अग्रे पठामि वा?
अग्रे पठतु महोदय.
कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अवच्छेदकः. अवच्छेद्य कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता, अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा? एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव, तदा तादृशः अग्रभागनाम्ना अवच्छेदकः अपि अस्ति. अन्यत्र यथा वृक्षस्य मूलभागे कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता अपि नास्ति, वृक्षस्य अग्रभागः अपि नास्ति. अनेन यत्र यत्र तत्र तत्र इति तु साधिकं किल? किं चिन्तनम्? इदानीं पुनः वयं कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति स्वीकुर्मः. तत्र कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अवच्छेदकः इति अस्ति.
अवच्छेदकः कः अस्ति
तत्र? अग्रभागः.
उत्तमम्, अग्रभागः अवच्छेदकः भवति. अवच्छेद्य
अत्रापि तत्र कुत्र अस्ति इति अवच्छेद्य अस्ति. कपिसंयोगनिष्ठ अधेयतानिरूपित अधिकरणता इति अवच्छेद्य अस्ति.
उत्तमम्.
इदानीम् अत्र अपि प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते वा इति. अधः तत्र यदा तादृशी अधिकरणता अस्ति वृक्षस्य वृक्षभागे एव तत्र अग्रभागनाम्ना अवच्छेदः अपि अस्ति इति. आम् तादृशरीत्या अपि वक्तुं चिन्तयितुं शक्नुमः वयम्. अन्यत्र अपि वृक्षस्य
भवान् वदतु महोदय.
अत्र यत्र यत्र यदि प्रश्नः वक्तुं तादृशरीत्या वक्तुं इच्छामः चेत् अत्र अधिकरणता यदा अधिकरण तादृश अधिकरण अस्ति अस्ति विभागे अस्ति अः अपि अस्ति अग्रकः अस्ति इति वयं अन्यत्र तत्र वृक्षस्य मूलभागे कपि संयोगनिष्ठ अधेयता निरूपित अधिकरणता अधिकरणता अपि नास्ति. वृक्षस्य अग्रभागे अपि नास्ति.
अग्रभागः अपि नास्ति.
अग्रभागः अपि नास्ति. अतः तत्रापि यत्र यत्र तत्र तत्र इति रीत्या वक्तुं शक्नुमः इति.
न न वक्तुं शक्नुमः वा इति प्रश्नः खलु. तत्र किं चिन्तनम् इति अस्ति खलु. इत्युक्ते तत्र अधिकरणता वृक्षस्य अग्रभागे एव अस्ति चेत् तत्र अग्रभागः भवति अवच्छेदकः. परन्तु अन्यत्र वृक्षस्य अन्यस्मिन् भागे तत्र तादृश मूलभागे तत्र तादृश अधिकरणता नास्ति खलु. तर्हि इदानीं यथा वयं यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति उक्तवन्तः, तादृशी तत्र अवच्छेदकता अवच्छेद्या मध्ये अवच्छेदकम् अवच्छेद्या मध्ये तादृशः सम्बन्धः अस्ति वा इति इदानीं प्रश्नः. अवगच्छति वा? तत्र अवच्छेद्या अस्ति तत्र अधिकरणता, अवच्छेदकः अस्ति अग्रभागः. तर्हि तादृश अवच्छेदकः अवच्छेद्या मध्ये यथा घटत्वप्रतियोगितायोः मध्ये सम्बन्धः यत्र यत्र तत्र तत्र इति आसीत् तादृशसम्बन्धः अस्ति वा? तादृशसम्बन्धः अस्ति चेदेव वयम् अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति वक्तुं शक्नुमः खलु. तत्र समानाधिकरण्यं आवश्यकम् इति वयं दृष्टवन्तः. तर्हि इदानीं तादृशसमानाधिकरण्यम् अस्ति वा इति प्रश्नः. अग्रभागः अपि च अधिकरणता तयोः मध्ये तत्र तादृशसमानाधिकरण्यम् अस्ति वा इति प्रश्नः. अवगच्छति वा?
अवगच्छामि.
अस्तु तर्हि सुब्रह्मण्यं महोदय भवान् पठति वा अग्रे?
किञ्चित् सम्यमस्ति अत्र. अन्योन अतिरिक्तवृत्तित्वरूप इतोपि स्पष्टं न अवगच्छामि. वस्तुतः एव न अवगच्छामि. किञ्चित् पठित्वा अनन्तरं अन्योन पूर्वं घटविषये पठितः कः एवम् अन्यूनानि इति पठात्र
सत्यं
तत् संयोगविषये अहं
न तत्र संयोगः इति किमपि विषयः नास्ति खलु. तत्र केवलं तत्र यत्र यत्र घटत्वं तत्र तत्र इत्युक्ते समानाधिकरण्यं तदेव अस्ति तत्र विषयः. इदानीं प्रश्नः अस्ति अस्मिन् दृष्टान्ते कपि संयोगदृष्टान्ते घटत्व घटघटाभावः इति यद्वयं पूर्वं दृष्टवन्तः तस्मिन् दृष्टान्ते तादृशसम्बन्धः अस्ति यत्र यत्र तत्र तत्र इति. इदानीं कपि संयोगस्थले तादृशसम्बन्धः अस्ति वा नास्ति वा इति प्रश्नः.
कः सम्बन्धः?
यत्र यत्र तत्र तत्र तदेव अन्यून्य अनतिरिक्तवृत्तित्वम् इति खलु. यत्र यत्र तत्र तत्र इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति सम्बन्धः वयम् उक्तवन्तः खलु.
पूर्वं घटविषये
घटविषये तादृशसम्बन्धः इदानीं एतस्मिन् विषये अस्ति वा इति प्रश्नः।
यत्र इत्युक्ते कुत्र यत्र यत्र
समानाधिकरण्यं खलु घटत्वस्य घटत्वमस्ति घटे प्रतियोगिता अपि अस्ति घटे इत्युक्ते यत्र यत्र यस्मिन् अधिकरणे घटत्वमस्ति तस्मिन् एव अधिकरणे प्रतियोगिता अपि अस्ति। अग्रे पठतु महोदय।
अत्र अस्ति वा या न
हा हा इदानीं प्रश्नः तदेव अग्रे पठामः चेत् तत्र किञ्चित् इतोपि स्पष्टता जायेत। तर्हि महोदय पठतु अथवा
संयोगः वृक्षस्य एवं किल न न अधुना
अथवा तथा द्वयोः
अधुना वृक्षस्य अग्रभागं पश्याम
न न न महोदय तद् अभवत् कुत्र अस्ति भवान् तत्सर्वम् अभवत् खलु तदनन्तरम् अथवा
अपि संयोगः
हा तस्य अपि अनन्तरम् अथवा
अथवा तथा द्वयोः अन्योनाम् अतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न स्यात् कुत्रचित् अपरवृक्षस्य अग्रभागे अपि संयोगः नास्ति इति कारणं किम् तथा न अत्र प्रमुखप्रश्नः अस्ति यत् अस्मिन्नेव वृक्षे यत्र कपि संयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते तस्य अधिकरणं किम् किमर्थं न स्यात् इति प्रश्नः किमर्थम् अन्योन अनतिरिक्तवृत्तित्वं नास्ति इति उक्तः चेत् किमर्थम् इति प्रश्नः उदेति कुत्रचित् अपरवृक्षस्य अग्रभागे कपि सम्यग् नास्ति इति प्रश्नः न इति कारणम्
इत्युक्ते तत्र अस्माकं विषयः किम् आसीत् तत्र यत्र यत्र अग्रभागः तत्र तत्र तादृशी अधिकरणता इति वक्तुं शक्नुमः वा इति प्रश्नः खलु तर्हि तत्र तथा नास्ति इति वदामः चेत् तत्र सर्वेषु वृक्षेषु यः अग्रभागः अस्ति तत्र कपि संयोगः अस्ति इत्युक्ते सर्वेषु वृक्षेषु अग्रभागे कपि संयोगः नास्ति इति कारणात् तादृश सम्बन्धः नास्ति इति न वक्तव्यम् अवगच्छति वा इत्युक्ते तत्र सर्वेषु अग्रभागेषु नास्ति इति कारणात् तत्र यत्र यत्र अग्रभागः तत्र तत्र तादृशी अवच्छेदकता क्षम्यतां तादृशी अधिकरणता इति न इति वक्तुं न शक्नुमः इति न अत्र अस्माकं विषयः अस्ति यस्मिन् वृक्षे वयम् इदानीं पश्यामः इत्युक्ते तत्र अग्रभागः इति धर्मः नास्ति खलु वृक्षत्वम् इति धर्मः आसीत् तदर्थं सर्वेषु वृक्षेषु इति वयं पूर्वं दृष्टवन्तः परन्तु अग्रभागः इति अत्र यस्मिन् वृक्षे कपिः अस्ति तस्मिन्नेव वृक्षे एव इदानीम् अस्माकं दृष्टान्तः तर्हि तस्मिन् वृक्षे अग्रभागे कपिः अस्ति सर्वेषु वृक्षेषु अग्रभागे कपिः भवेत् इति नास्ति इदानीं विषयः परन्तु अत्र विषयः अस्ति अधिकरणस्य विषयः इदानीं मया किम् उक्तं तत्र यत्र यत्र तत्र तत्र इत्युक्ते तत्र अधिकरणस्य विषयः खलु यत्र घटमस्ति प्रतियोगितायाः अधिकरणमपि घटम् इति इदानीम् अग्रभागस्य अधिकरणं किम् अधिकरणतायाः अधिकरणं किम् इति वयं इदानीम् अस्माभिः चिन्तनीयम् अवगच्छति वा अस्तु इतोपि अग्रिमपरिच्छेदः पठतु महोदय, तदनन्तरं समापयामः.
अग्रभागस्य अधिकरणं भिक्षः एव नास्ति खलु? यत्र यत्र तत्र तत्र इति अनेन कपि संयोगनिष्ठ आधेयतानुरूपित अधिकरणता अग्रभागः च द्वयोः अधिकरणं समानं स्यात्. पूर्वं वृक्षः वृक्ष अधो अग्रभागः यत्र यत्र इत्यस्मिन् यत्र इत्युक्ते अधिकरणे केवलं विषये कुत्रचित् उपस्थितः इति पर्याप्तं न. यत्र यत्र तत्र तत्र इत्यनेन समान अधिकरण्यं भवेत्, समान अधिकरण्यं भवेत्. कपि संयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अधिकरणं किं? वृक्षः. अग्रभागस्य अधिकरणं किम्? अग्रभागस्य अवयवः अग्रभागः किल अवयवः अग्रभागस्य अवयवः अग्रभागस्य अधिकरणं वृक्षः इति वक्तुं शक्यते किम्? अग्रभागः स्वयं वृक्षस्य अवयवः, वृक्षः इति वक्तुं न शक्यते किल. अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति.
भवान् किं चिन्तयति, अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति?
अवयविनी अवयवी अवयवे भवति.
उत्तमम्. अवयवी अवयवे भवति इत्युक्ते वृक्षः इति अवयवी खलु, अग्रभागः इति अवयवः. तर्हि वृक्षः अग्रभागे अथवा अग्रभागः वृक्षे?
वृक्षः अग्रभागे.
उत्तमं. वृक्षः अग्रभागे. तर्हि तत्र किम् आसीत् इदानीं तत्र कपिसंयोगनिष्ठ अधिकरण आदेयतानिरूपित अधिकरणता इति अवच्छेद्या अग्रभागः इति अवच्छेदकम्. तर्हि अग्रभागस्य अधिकरणं किम्?
अग्रभागस्य अधिकरणम् अग्रभागः,
अग्रभागस्य अवयवः यत्किमपि भवति तत्. इदानीम् अधिकरणतायाः अधिकरणम् अस्ति वृक्षः.
वृक्षः
वृक्षः अग्रभागे अस्ति खलु. तर्हि इदानीं वृक्षः अपि च अग्रभागः तयोः मध्ये समानाधिकरण्यं नास्ति? क्षम्यतां, वृक्षः अपि च अग्रभागः इति समानः नास्ति इति कृत्वा अधिकरणता अपि च अग्रभागः इत्युक्ते अवच्छेद्या अपि च अवच्छेदकं तयोः मध्ये समानाधिकरण्यं नास्ति. यथा तत्र घटत्वप्रतियोगितायोः मध्ये समानाधिकरण्यम् आसीत्, परन्तु इदानीं तत्र अग्रभागः इति वृक्षस्य अवयवः जातः. तर्हि वृक्षः अस्ति अग्रभागे, तर्हि वृक्षः अग्रभागः इति तयोः समानः, क्षम्यतां, तौ समानौ इति न वक्तुं शक्नुमः. तत्र समानाधिकरण्यम् इति अपि न वक्तुं शक्नुमः. अस्तु, सम्यक्. तर्हि किञ्चित् अधिकसमयः जातः अद्य, अद्य इदानीं समापयामः. तर्हि पुनः एकवारं शृणोतु, अग्रिमकक्षायां वयम् अग्रे पठेम. धन्यवादः. शुभरात्रि.
धन्यवादः.
धन्यवादः. शुभरात्रि.